అమృతసింధో అఖీలరసామృతమూర్తి ప్రసీమరరుచిరుద్ధతారకాపాళి కలితశ్యామహాలలితో రాధాప్రియానవిదోజయతి. హరిదీరస్య ప్రేరణయా ప్రవర్తితోహం బరాకరూపోపి తస్స హరే పదకమలం వందే చైతన్యదేవస్యం విశ్రామమందిరతయా తస్స సనాతనోతనోర్మదీష్యం భక్తిరసామృతసింధోర్భవతు సదాయం ప్రమోదాయం. భక్తిరసామృత సింధో చరత పరిభూత కాల జాల ఘీయా భక్త్యా మకరాన శీలత ముక్తి నదికాన్ నమస్యామి. మీమాంసక వరవాగ్నే కఠినామపి కుంఠన్నసౌ జీవ్హా స్ఫురతు సనాతన సుచిరం తవ భక్తిర సామ్యతాం బోధి. భక్తిరసస్య ప్రస్తుతిరఖిల భగవన్ మంగళ ప్రసంగస్య అగ్నినాపి మయా సక్రియతే క్రియతే సుహృదాం ప్రమదాహయం. ఏతస్య భగవద్ భక్తి రసామృతోపయో నిధే చత్యార ఖలు వక్ష్యంతి భాగాపూర్వా దయక్రమా. తత్ర పూర్వ విభాగేస్మిన్ భక్తి భేద నిరూపకే అనుక్రమేణ భక్త్యవ్యం లహరీనాం చతుష్టయం ఆద్యా సామాన్య భక్త్యాఢ్యాం ద్వితీయా సాధనాంకితా భావాశ్రితా తృతీయాత్ర తూర్యా ప్రేమనురూపికా. తత్రాదౌ సుష్ఠు వైశిష్ట్యం మశ్యా కథయతుం స్ఫుటం లక్షణం క్రియతే భక్తి రుత్తమాయా సతాంగమతం అన్నాభిలాషితా శిన్యం జ్ఞానకర్మార్దనావృతం ఆనుకూల్యేన కృష్ణానుశీలనం భక్తిరుత్తమం. సర్వపాధి వినిర్ముక్త్యం తత్పరత్వేన నిర్మలం ఋషికేన ఋషికేశ సేవనం భక్తి కృత్యతి. శ్రీ భాగవతస్య తృతీయ స్కంధే చ వైతకబ్బవహితాత్ జ్యా భక్తి పురుషోత్తమే సాలోక శాస్త్రి సామీప్య సారూపైకతమప్లుత వ్యోమాలం నగృణంతి వినాజసేవన జనః సైవ భక్తియోగాఖ్య ఆతంతిక ఉదాహిత సాలోక్యేత్యాద పద్యస్యం భక్తోత్కర్షు నిరూపణం భక్తిర్విశుద్ధతయా భక్త్యా లక్షణే పర్యవసతి. క్లేశగ్ని సుభదా మోక్షం లఘుతాకి సుదూర్లభా సాంద్రానంద విశేషాత్మా శ్రీకృష్ణాకర్షిణి చ తత్రాశా క్లేశగణత్తం. క్లీశాస్తు పాపం తద్బీజమవిద్యా చేతి తేత్రిధా. తత్ర పాపం అప్రారంభం భవిత్ పాపం ప్రారంభం చేతి తద్విధా. తత్ర ప్రారంభహరత్తం యథైక ఏకాదశి యథాగ్నిసమమిద్యార్చి కరోతే ధ్యాంసి భస్మశ్యా తథా మద్ విషయా భక్తి రుద్ధ వైనాంసి కృష్ణశః. ప్రారబ్ధహరత్తం యథా తృతీయ जन्नामधेयश्रवणानुकीर्तना यत्प्रवणाद्यस्मरणादपि कचित् साधोऽपि सद्यः श्रवणाय कल्पते कुतः पुनस्ते भगवन् दर्शना दुर्जातिरेव श्रवणा जुगति कारणगमतम् दुर्जात्यारम्भकम् पापम् जत्सात्वारब्धमेव तप पद्मपुराणे च अप्रारब्धफलम् पापम् कृतम् बीजम् फलेनुफलोन्मुखम् क्रमेणैव प्रलीयते विष्णुभक्तिरतात्मनाम् बीजहरत्तम् यथा षष्ठे द्वितीयोऽध्याये सप्तदश श्लोके त्रैस्तान्नघानि पूयन्ति तपदानव्रतादिः नाधर्मजम् तद्हृदयम् तपदशीन् तपद तपदशी शाङ्घ्री सेवया अविद्याहरत्यम् यथा चतुर्थे यत्पादपङ्कजपलासविलासभक्त्या कर्मा सङ्गथितमोग्रथयन्ति सन्तः तद्वर्णनित्तमतयो जतयो निरुध्या श्रोतगणास्तमरणम् भजवासुदेवम् यत्पादपङ्कजपलासविलासभक्त्या कर्माशयम् ग्रथितमोद्ग्रथयन्ति सन्त्यम् तद्वर्णरिक्तमतयो जतयो निरुध्या श्रोतगणास्तमरणम् भजवासुदेवम् बाद्मी च कृतानुजात्रा विद्या हि हरिभक्तिरनुत्तमा अविद्या निर्दहत्याशु दावज्जालिव पन्नगीम् शुभदत्तम् शुभानि प्रीणम् सर्वजगताम् अनुरक्तता सद्गुणा सुखमित्यादीनि आख्यातानि मनीषी तदज्जगत् प्रणीता प्रणिनादि दया प्रदत्यम् यथा पार्मे जीर्णार्चितो हरिस्तेन तर्पितानि जगन्तपि रज्जन्ति जन्तवस्तत्र जङ्गमा स्थावरायपि सद्गुणादि प्रदत्तम् यथा पञ्चमे अष्टादशाध्याये द्वादश श्लोके यस्यास्ति भक्ति भगवत्त किञ्चन सर्वैर्गुणैस्तत्र समासते सुरः हरावभक्तस्सु कुतो महद्गुणा मनोरथीना सति धावत बहि यस्यास्ति भक्ति भगवत्त किञ्चन सर्वैर्गुणैस्तत्र समासते सुरः परावभक्तस्य कुतो महद्गुणा मनोरथीना सति धावत बहि सुखाप्रदत्यम् सुखम् वैषयिकम् ब्राह्म्य ऐशरम् चेति तत्त्रिधा यथा तन्त्रे सिद्धया परमाश्चर्या धुरी मुक्तिश्च शाश्वति नित्यम् च परमानन्दम् भवेद् गोविन्द भक्तितः हरिभक्ति सुधोदय च भूयोऽपि जाचे देवेश तयि भक्ति विरास्तु मे या मुख्यान्त चतुर्भग्य फलदा सुखदा लता भूयोऽपि जाचे देवेश तयि भक्ति विरास्तु मे या मुख्यान्त चतुर्भग्य फलदा सुखदा लता मुख लघुतात्रि मनागेव प्रौढायाम् हृदये भगवद्रतौ पुरुषार्थास्तु चत्यारस्त्रिनायन्ति समन्ततम्। तत्र नारद पंचरात्रे हरिभक्ति महादेव्या सर्वा मुक्त्यादि सिद्धया भुक्ताश्चाद्भुतास्तस्य चीतिका बलनो व्रतः। सुदुर्लभा साधनौ भैरनासङ्गैरलभ्या सुचिरादपि हरिणा चास्तदेयीति द्विधा शासत्सुदूर्लभम्। तत्रादा यथा तन्त्रे ज्ञानतः सुलभामक्ति भुक्ति जज्ञादिपुन्नतम् सेयं साधना सहस्रै हरिभक्ति सुदुर्लभम्। द्वितीया यथा पंचमस्कंधे राजन् पतिगुरुरलम् भवतां यदुनां दैवं प्रियः कुलपति कटकिङ्करः वा अस्त्येवमङ्गभजतां भगवन्मुकुन्दो मुक्तिं ददाति कर्हि चेत् मनभक्तिजोगम्। राजन् पतिगुरुबलं भगवतां भवतां यदूनां दैवं प्रियकुलपति कटकिङ्करः वा अस्त्येवमङ्गभजतां भगवान् मुकुन्दो मुक्तिं ददाति कर्हि चेत् मनभक्तिजोगम्। चान्द्रानन्द विशेषात्मा यथा ब्रह्मानन्द भवेदेश चेत्पराद्धगुणीकृतम् नैति भक्ति सुखाम्बोधे परमानो तुलामति। यथा हरिभक्ति सुद सुखोदय सुदोदय तत्साक्षात्करणाल्याध विशुद्ध्यार्थिस्थितसमे सुखानि गोष्पदायन्ते ब्राह्मण्यपि जगद्गुरु। तत्साक्षात्करणाल्याध विशुद्ध्यार्थिस्थितसमे सुखानि गोष्पदायन्ते ब्राह्मण्यपि जगद्गुरु। तत्कथामृतपायोधौ विहरन्त महामदः कुर्वन्ति कीर्तिनं केचि चतुर्भङ्गं किनोपमं। श्रीकृष्णाकर्षणे कृत्वा हरिं प्रेमभाजं प्रियवर्गसमन्वितं भक्ति वशीकरोति श्रीकृष्णाकर्षणी मता। जथैकादशि न साधयति मां जोग न साङ्कं धर्मयुद्धव न श्रद्धाय तपस्त्यग यथा भक्ति ममोर्जितम्। सप्तमे च नारदोक्तौ जूयं लोके वत भूरि भागा लोकाङ्पुनानां मुनयोऽभि सन्ति येषां गृहाणा वसतीति साक्षात् गूढं परं ब्रह्म मनुस्तलिङ्गम्। अग्रतो वक्षमानाय श्रीधा भक्तिरनुक्रमात् दिशस्सर्वि पदैरे तन्माहात्मक परिकीर्तता किञ्च स्वल्पापि रुचिरेव स्याद् भक्ति तत्तापबोधिका युक्तिस्तु केवला नैव यदस्या अप्रतिष्ठता। तथा प्राचीनारपि उक्त्यम् यत्नेन पादितो पार्थ कुशलैरनुमातृः अभियुक्ततरैरन्नथै भूपपाद्यते। इति भक्तिरसामृतसिन्धौ पूर्वविभागे भक्तिसामान्यलहरी प्रथमा। सा भक्तिसाधनाङ्गभाव प्रेमा चेति तिथोदिता कृतिसाध्या भवेत् साध्य भावा साधनाविदा नित्यसिद्धस्य भावस्य प्रातत्त्वम् निदिशाद्धता। सा भक्ति सप्तमस्कन्दे भङ्गाङ्गदेवर्षिणोदिता तस्मात् केनाप्युपायीनां मनः कृष्णे निवेशयत् तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् वैधिरागानुचेतीशा द्विधा साधनाविधा। तत्र वैधि यत्र रागान नवाप नवाप तस्यात् प्रवृत्ति उपजायति शासने नैव शास्त्रस्य सा वैधि भक्तिरुच्यते यथा द्वितीय तस्मान् भारत सर्वात्मा भगवान हरिश्वर श्रोतव्य कीर्तवस्यम स्मर्तव्येताभयम् तस्माद् भारत सर्वात्मा भगवान हरिश्वर श्रोतव्यं कीर्तितव्यं स्मर्तव्येताभयम् स्मर्तव्यो सततं विष्णु विस्मर्तव्यो न जातु चेत् सर्वे विधि निषेधासु रेतयो रेव किंकराम् तस्माद् भारत सर्वात्मा भगवान हरिरीश्वरं श्रोतव्य कीर्तितव्यस्य स्मर्तव्येच्छदाभयम् स्मर्तव्य सततं विष्णु विस्मर्तव्यो न जातु चेत् सर्वे विदे निषेदासु रेतयो रेव किंकराम् इत्यासु चाद विधि नित्यं सर्ववर्णा दिशु नित्तत्ति पश्य निर्णिताम् एकादशादिवत् फलम् एकादशी व्यक्तम् मुखबाहूरुपादेभ्यो पुरुषस्यासमै सह चत्वारजग्रे वर्णा गुणै विप्रादय पृथक् जायेषां पुरुषं साक्षादात्मा प्रवमामीश्वरम् न भजन्त भजानन्ति तानाद्भश्चापतं तथा मुखबाहूरुपादेभ्यः पुरुषस्याश्रमै सह चत्वारजग्ने वर्ण गुणै विप्रादय पृथक् जायेषां पुरुषं साक्षात् आत्मा प्रवममीश्वरं न भजन्त भजानन्ति तानाद्भृष्ट्या पतन्तधम् ईवाङ्क्रियादिगोपथै उमान वैदिक तान्त्रिकै अच्युन्न भयतो सिद्धिं मत्तो बिन्दत्याभीक्षिता पञ्चरात्रे च सुरर्षि विहिता शास्त्रे हरिमुद्दिश्य जाक्रिया सैव भक्तिरिति प्रत्या तया भक्ति परा भवेदिति तत्राधिकारी जा केनाप्ति भाग्येना जातस्य सेवने नातिशक्ता न वैराग्य भागश्च श्यामधिकार्यसौ यथैकादशी यदिच्छयामत्कथादौ जातस्य जपमान न निर्विण्य नातिशक्त भक्ति योगस्य सिद्धिदः उत्तमौ मध्यमश्च स्यात् कनिष्ठ स्थितिथ त्रिधा तत्र उत्तमा शास्त्रे युक्तौ च निपुणा सर्वथा दृढनिश्चय प्रौढ सद्ध्या अधिकारी या स भक्त्या उत्तमो मतः मध्यमा जशास्त्रादि शनिपुणा सद्ध्यावान सदुमध्यम कनिष्ठ जो भवेत् कोमल सद्ध्या स कनिष्ठ निगद्यते तत्र गीतादियुक्तानां चतुर्णाम् अधिकारिणाम् मध्ये जस्मिन् भगवतो कृपा स्यात् तत् प्रियस्य वा स खीनत्तद्भाव स्यात् उद्धव भक्तो अधिकार वा यथैव शौनकादिश्च ध्रुवाथ चतुष्यम् भुक्ति मुक्ति स्पृहा जावत् पिशाचि विवर्तते तावद् भक्ति सुखश्चात्र कथम् अभ्युदयो भवे भुक्ति मुक्ति स्पृहा जावत् पिशाचि विवर्तते तावद् भक्ति सुखश्चात्र कथम् अभ्युदयो भवे तत्रापि च विशेषेण गति मन्ने मनिच्छतः वक्ति इदा मन प्राणं प्रेमनातान कृते जना